वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ। कविकुलगुरुणा कालिदासेन विरचितं सन्देशात्मकं पूर्वोत्तरमेघरूपेण विभक्तं लघुकायं मेघसन्देशनामकं काव्यं इतः प्राक् प्रस्तुतं सान्द्रध्वनिमुद्रिका सीडी रूपेण प्रकाशितं च। अधुना एकोनविंशतिसर्गात्मकं बृहत्कायं रघुवंशनामकं काव्यं प्रस्तूयते। महाकवेः कालिदासस्य इदमेव प्रथमं काव्यमिति अभिज्ञानाम् आशयः। अत एव महाकविनापि कालिदासेन मन्दः कवियशः प्रार्थी इत्यादि श्लोकद्वयेन स्वाहङ्कारं परिहृत्य स्वस्य विनयः आविष्कृतः इति वदन्ति। अस्मिन् काव्ये दिलीपप्रभृतयः अग्निवर्ण अन्ताः रघुवंश्याः राजानः वर्णिताः, तेषां चरितं च उपवर्णितम्। रघूणां प्राशस्त्यम् उपवर्णयन् अयं महाकविः एते हि आजन्मशुद्धाः कुलगुरुणा ब्रह्मर्षिणा कृतसंस्काराः आसमुद्रक्षितीशाः सार्वभौमाः इन्द्रसाहचर्यात् आनाकरथवर्तमानः स्वर्गमपि निराटंकं रथेन गन्तारः त्यागाय संभृतार्थाः न तु भोगाय इत्यादि गुणविशेषविशिष्टाः इति प्रत्यपादयत्। एते च रघुवंश्याः राजानः किल अन्वर्थनामानः। अयं शास्त्रस्य पारं यायात् तथा युधि शत्रूणां पारं यायात् इति धिया दिलीपः स्वपुत्रं रघुनामाङ्कितं चकार। गत्यर्थक लघिधातोः निष्पन्नः अयं रघुशब्दः। अजः किल ब्राह्मे मुहूर्ते अभिजिन्नामके उत्पन्नः, अत एव रघुः स्वपुत्रस्य विधातुः नाम्ना अज इति नाम चकार। रमन्ते योगिनः अस्मिन्निति रामः इति प्रथित एव। एवं रघुवंश्याः राजानः अन्वर्थनामानः इति निश्चप्रचम्। अपि चात्र विशेषः महापुरुषचरितवर्णनेन काव्यस्य कवेश्च प्राशस्त्यमिति आलङ्कारिकाणां मतम्। रावणस्य वधार्थिभिः देवैः अभ्यर्थितः श्रीमन्नारायण एव दशरथसूनुरूपेण अवतीर्णः। साधुपरित्राणाय, दुष्कृतां विनाशाय, धर्मसंस्थापनार्थाय अवतीर्णस्य भगवतः श्रीरामभद्रस्य चरितम् उपवर्णितं संक्षेपेण। अत्र काव्ये रघुवंश्यानां महायशसां राज्ञां, विशेषतः श्रीरामभद्रस्य भगवतः चरितवर्णनं, कवेः कालिदासस्य काव्यस्य चास्य महत्वम् आपादयति। उपमा कालिदासस्य इति सूक्तिः प्रथितैव। कविरयं वागर्थाविव सम्पृक्तौ इति उपमालङ्कारेणैव काव्यमिदं प्रारब्धवान्। अत्र लोकप्रसिद्धानि वैदिकानि शास्त्रीयाणि च उपमानानि सुमनोग्नम् उपनिबद्धानि। यद्यपि अत्र काव्ये उपमाबाहुल्यं दृश्यते, अथापि उत्प्रेक्षा, अर्थान्तरन्यासादयः, अन्ये अलङ्काराः यथोचितं समावेशिताः। काव्यमिदं प्रहर्षिणी इन्द्रवज्र वंशस्थाधिभिः वृत्तैः उपनिबद्धम्। काव्यस्यास्य परिशीलनेन अयं महाकविः श्रुतिस्मृतिषु निष्णातः, धर्मशास्त्रादि विविधशास्त्रपारगः इति ज्ञायते। एवं सङ्गीतशास्त्रज्ञः, जन्तुलक्षणज्ञश्च इति गम्यते। यद्यपि अस्य महाकाव्यस्य बह्व्यः व्याख्याः दरीदृश्यन्ते, तथापि आन्ध्रप्रान्तीयेन कोलाचलपुरवासिना मल्लिनाथसूरिणा विरचिता सञ्जीवनी व्याख्या सर्वोत्तम कविहृदयाविष्कारिणि पण्डितपामरहृदयोल्लासिका च। बालानां सुखबोधाय प्रतिपदार्थाः, समासाः, व्याकरणविशेषाः व्याख्याताः, निघण्टुप्रामाण्यम् उपनिबद्धम्। अपि च अस्यां व्याख्यायां श्रुतिस्मृतिवाक्यानि, पौराणिकाः श्लोकाः, कथाश्च उपनिबद्धाः। एवं ज्योतिष सङ्गीत जन्तुशास्त्रसम्बन्धीनि प्रमाणानि प्रतिपादितानि। तेन कवेः व्याख्यातुश्च सर्वांगीणं पांडित्यं यज्यते। तदेवं महाकवेः कालिदासस्य विशिष्टमिदं रघुवंशनामकं काव्यं विशिष्टया संजीविन्या व्याख्यया समुपेतं अधुना प्रस्तूयते। सांद्र ध्वनिमुद्रिका सीडी रूपेण प्रकाश्यते च। इदं सहृदयानां श्रोतॄणां हृदयानि आवर्जयति आह्लादयति इति आशास्महे। तेन च अस्माकं इयं कृषिः सफला भूयात् इति आशास्महे। इत्थं निवेदयित अरविन्दरायः।
महाकविना कालिदासेन विरचितं एकोनविंशात्मकम् आदिमं रघुवंशनामकं पूर्णं काव्यं सान्द्रध्वनिमुद्रिका सीडी रूपेण निर्मितम् अस्माभिः। श्लोकाः मलिनाथव्याख्यासः श्राविताः प्रतिध्वनीकृताश्च। चिरञ्जीवी आदित्यः सुमधुरेण स्वरेण श्लोकान् अश्रावयत्। एवं डाक्टर् के नीलकण्ठमहोदयैः प्रथम चतुर्थ अष्टम नवम द्वादश सर्गाणां श्लोकव्याख्याः श्राविताः। डाक्टर् केसिराजु वेङ्कट चन्द्रशेखर महाभागैः तृतीय षष्ठ दशम एकादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश एकोनविंशति सर्गाणां व्याख्याः श्राविताः। श्रीमद्भिः एन्सीटी आचार्य महाभागैः द्वितीय पञ्चम सप्तम सर्गाणां व्याख्याः श्राविताः। एवं त्रिभिः पंडितैः गंभीरेण स्वरेण मलिनाथ व्याख्याः श्राविताः। अस्मिन् महति कार्यक्रमे आर्थिकरूपेण सहकृतानां महाभागानां एवं कायेन वाचा मनसा सहकृतानां अन्येषां च महाभागानां हार्दिकं कार्तज्ञं प्रकटयामः। सहृदयाः कार्यमिदं प्रोत्साहयन्तु इति आशास्महे। इत्थं भवदीयः डाक्टर् ए. इग्नरामुलु।